नमस्कारः। अद्य मृतसञ्जीवनस्य द्वितीयम् अङ्कं पठामः। ततः पूर्वं प्रथम अङ्कस्य कथां संक्षेपेण वक्तुं शक्नोति वा भवती? कारणं परीक्षायाम् अङ्ककथा अपि पृच्छ्यते। अङ्कस्य कथा संक्षेपेण लिखत, प्रथम अङ्कस्य कथा, पञ्चम अङ्कस्य कथा इति, कस्यचित् अङ्कस्य कथा संक्षेपेण लेखनीया भवति परीक्षायां। तस्य अभ्यासार्थम् इदानीं द्वितीय अङ्कस्य पठनात् प्राक् एकवारं प्रथमम् अङ्कं स्मृत्वा परीक्षार्थमपि प्रयोजनाय भवति इति कारणेन इदानीं प्रथम अङ्कस्य कथां भवती संक्षेपेण वदतु।
प्रथमम् इन्द्रः आकुरः अस्ति, यतः राक्षसाः रन्ध्रम् अन्विष्य पुनः पुनः देवानाम् आलयस्य आक्रमणं कर्तुं प्रयतन्ते इति। तदा बृहस्पतिः तत्र आगच्छति। इन्द्रः बृहस्पतिम् अभिवाद्य वेदवाक्यानां पतिः भवान् इति तस्य प्रशंसां च करोति। अनन्तरं
बृहस्पतिः पृच्छति,
देवानां कुशलं पृच्छति बृहस्पतिः। तदा इन्द्रः स्थितिं वक्तुं प्रारभते। तदा सः
स्वस्य पुत्रस्य जयन्तस्य विषये वदति। जयन्तः कांश्चन असुरान् यमसाधनं प्रेषितवान् इति वदति। अनन्तरं
कश्चन भटः आगत्य मारिताः राक्षसाः अपि पुनः जीवनं प्राप्य आगत्य पुनः युद्धं कुर्वन्ति इति वदति भटः। तश्रुत्वा आश्चर्यान्वितः इन्द्रः बृहस्पतिं तस्य कारणं पृच्छति। बृहस्पतिः झटिति समाधिं प्राप्य तस्य कारणं ज्ञात्वा शुक्राचार्यः एव एतस्य कारणम् इति वदति। तर्हि किं कुर्मः इति चिन्तयति
शुक्राचार्यः। किं करोति?
मृतसञ्जीवनी इति एकं मन्त्रं, बीजाक्षराणि संयोज्य मन्त्रः सः उद्धृतः।
तेन मन्त्रबलेन सः मृतान् असुरान् सर्वान् पुनः जीवयति। ते असुराः पुनः आगच्छन्ति इति
युद्धं कुर्वन्ति
इति बृहस्पतिः वदति।
ततः पुनः एकः भटः आगच्छति। सः वदति युद्धे असुराः अपि निहताः, केचन पलायिताः, तथैव अस्माकं सेनायामपि केचन निहताः इति वदति। तत् श्रुत्वा इन्द्रः वदति विजयवार्ताश्रवणेन मृतं मे भयं, शुक्राचार्यस्य उपायं
मन्त्रं
स्मृत्वा मन्त्रं स्मृत्वा पुनः जीवनं प्राप्तः इति वदति। तथा एकः उपायः चिन्तनीयः इति बृहस्पतिं प्रार्थयते सः। बृहस्पतिरपि अस्तु इति उक्त्वा प्रथमाङ्कः समाप्तः आसीत्।
अस्तु, इदानीं द्वितीयोऽङ्कः, बृहस्पतेः आश्रमप्रदेशः। वेदाध्यायी कचकुमारः निमीलिताक्षः सहनाभवतु इति सूक्तिम् अधीयानः तिष्ठति। तदन्तरे इन्द्रः प्रविशति। बृहस्पतेः आश्रमः अस्ति, तत्र बृहस्पतेः पुत्रः अस्ति कचकुमारः इति तस्य नाम। सः वेदाध्ययनं करोति, अतः वेदाध्यायी कचकुमारः। निमीलिताक्षः, निमीलितम् अक्षि यस्य अस्ति सः निमीलिताक्षः भवति। नाम तस्य नेत्रं निमीलितम् अस्ति, क्लोज्ड् इति अर्थः। नेत्रं निमीलितम् अस्ति, नेत्रद्वयमपि निमीलितम् अस्ति। एवं नेत्रं निमील्य सः सहना भवतु इति मन्त्रं पठन् तत्र अस्ति कचकुमारः। तस्मिन् समये इन्द्रः आश्रमं प्रविशति। कचः नेत्रे उन्मील्य, नेत्रद्वयम् अतः नेत्रं नेत्रे द्विवचनं, नेत्रे उन्मील्य नाम उन्मीलनं, निमीलनस्य विपरीतार्थं बोधयति उन्मीलनं। नाम निमीलनम् इत्युक्ते क्लोज्ड् इति अर्थः, उन्मीलनम् इति ओपन् उद्घाटनम् इति अर्थः। नेत्रे उन्मील्य अहो देवराजः स्वागतम् इदमस्तु, देवराजस्य स्वागतं करोति। न अनुद्दिष्टप्रयोजनाः आगच्छन्ति महाजनाः, आस्यताम्। कचकुमारः वदति इन्द्रः साक्षात् देवानां राजा अस्ति, कश्चित् राजा अस्माकम् आश्रमप्रदेशम् आगतवान् चेत् निश्चयेन किमपि कारणं भवेत् इति कचकुमारस्य कारणं। राजानः तु महाजनाः सन्ति, अतः तेषाम् आगमनं तु सामान्यविषयः नास्ति। कस्मिंश्चित् आश्रमे राज्ञाम् आगमनं तु सामान्यविषयः न, किमपि निश्चयेन तस्य पृष्ठतः एकं कारणं भवेत् इति कचकुमारस्य चिन्तनम् अस्ति। अतः वदति न अनुद्दिष्टप्रयोजनाः, किमपि प्रयोजनम् अनुद्दिश्य प्रयोजनम् उद्दिश्य न उद्दिश्य अनुद्दिश्य प्रयोजनम् अनुद्दिश्य महाजनाः नाम ज्येष्ठ महाजनाः इति राजानः इति स्वीकर्तुं शक्यते ते राजानः न आगच्छन्ति न अनुद्दिष्टप्रयोजनाः आगच्छन्ति महाजनाः आस्यताम् आस्यताम् इत्यत्र उपविशतु इति अर्थः आस् धातुः आत्मनेपदी आस् धातुः लोट्लकारः प्रथमपुरुषः एकवचनम् आस्यताम् इति इन्द्रः इन्द्रोऽहम् अभिवादये इन्द्रः कचकुमाराय अभिवादनं करोति न न कुमारो अहं खलु पितरः पितरो अभिवाद्याः कचकुमारः समनन्तरं वदति न न अहं कुमारः खलु अहं तु लघुबालः अस्मि पितरः एव अभिवाद्याः सन्ति नाम ज्येष्ठाः एव नमस्कर्तुं योग्याः सन्ति इति इन्द्रः गुरुकुमारोऽपि अभिवाद्यः भवान् गुरुकुमारः अस्ति अस्माकं गुरुः बृहस्पतिः अस्ति तस्य कुमारः तस्य पुत्रः भवान् अस्ति अतः गुरुकुमारः अपि नमस्कर्तुं योग्यः एव गुरुकुमारः अपि अभिवाद्यः एव इति इन्द्रः प्रतिवचनं ददाति कचः तत्तथा आस्ताम् अपि सर्वे कुशलिनो मृतान्धसः इदानीं कचकुमारः पृच्छति अत्रापि अपि इति शब्दः प्रश्नार्थकः अत्र सर्वे कुशलिनो मृतान्धसः इति प्रश्नं पृच्छति सर्वे अमृतान्धसः कुशलिनः सन्ति वा इति पृच्छति नाम अमृतान्धसः अमृतम् अन्धः येषां ते अमृतान्धसः भवन्ति अन्धः इति अन्नविशेषः अस्ति अतः अमृतम् अन्धः नाम अमृतं भोजनं येषाम् अस्ति ते अमृतान्धाः भवन्ति ते अमृतान्धसः भवन्ति शब्दः अमृतान्धस् शब्दः भवति सकारान्तः पुल्लिङ्गशब्दः अमृतान्धाः अमृतान्धसौ अमृतान्धसः वेधस् शब्दवत् वेधाः वेधसौ वेधसः इव अमृतान्धाः अमृतान्धसौ अमृतान्धसः इति बहुवचनम् अमृतान्धसः कुशलिनः सन्ति किं सर्वे इति पृच्छति तदा इन्द्रः स्वगतं नाम आत्मगतं वदति अमृतान्धसः वयं तु इदानीं मृतप्रायाः स्मः अमृतान्धसः इति पृच्छति सः घृतकोशातकि घृतवत् इति आत्मगतं वदति घृतकोशातकि घृतवत् इत्युक्ते कोशातकि इति कश्चित् स्यूतविशेषः अतः स्यूतेन नीयमानं घृतं यथा स्यूतः स्वयं न खादति तथा यद्यपि वयम् अमृतान्धस नाम यद्यपि अस्माकं समीपे अमृतम् अस्ति तथापि तस्य अमृतस्य अशनम् अस्माभिः न क्रियते इव अस्ति इति वदति सः कारणम् अत्र देवानां पक्षे अपि बहवः इदानीं राक्षसैः मारिताः सन्ति इति कारणेन अमृतान्धसः इति पदं तेभ्यः न युज्यते इति इन्द्रस्य अभिप्रायः अतः यथा घृतकोशातकि घृतं न खादति नाम घृतस्यूतः यथा स्वयमेव घृतं न अनुभवति तथा अमृतं येषां हस्ते अस्ति देवानां समीपे अमृतम् अस्ति तथापि तद् अमृतं ते न खादन्ति इव दृश्यते इदानीं कारणं ते मृतान्धसः जायमानाः स्युः इति इन्द्रस्य अभिप्रायः इति स्वगतं चिन्तयित्वा प्रकाशं वदति नाम यथा सर्वैः श्रूयते तथा वदति इन्द्रः कच अनुद्देशमपि सम्यक् पृष्टं त्वया अनुद्देशमपि सम्यक् पृष्टं त्वया इति इन्द्रः वदति इदानीं तत्पूर्वं कचः किं पृच्छति सर्वे कुशलिनो मृतान्धसः इति पृच्छति तत्र कुशलिनो मृतान्धसः मृतान्धसः इति पदच्छेदम् अत्र क्रियते चेत् कुशलिनः अमृतान्धसः इति कुशलिनः अमृतान्धसः इति पदम् इति पदद्वयं पूर्वरूपसन्धिकारणेन कुशलिनो मृतान्धसः इति अभवत् कुशलिनो मृतान्धसः इति कथनेन कचस्य विवक्षा तु अमृतान्धसः इति एव सः सन्धिं कृत्वा अकारस्य लोपः जायते इति कारणेन कुशलिनो मृतान्तसः इति श्रूयते, किन्तु तत्र अकारः तु गुप्तः अस्ति. तत्र लेखनसन्दर्भे वयं कुशलिनः कुशलिनो मृतान्धसः इति यथा लिखामः तदा अवग्रहचिह्नेन तत्र अकारस्य उपस्थितिं वयं बोधयामः, किन्तु यदा उच्चारणसन्दर्भे तु अकारस्य उच्चारणं तु न श्रूयते कुशलिनो मृतान्धसः इति. अतः केवलं मृतान्धसः इति पदं मात्रम् अवलम्ब्य इन्द्रः वदति भवतः उद्देशः तु मृतान्धसः इति कथनं न, अनुद्देशमपि यदि मृतान्धसः इति पदं भवता अनुद्दिष्टम् अपि भवता सम्यक् पृष्टम्. सम्यक् पृष्टम् इत्युक्ते मृतान्धसः इति मृतान्धसः एव वयं जायमानाः स्मः इति वदति इन्द्रः. कारणम् इदानीं देवाः सर्वेपि मृतप्रायाः सन्ति इति अर्थं स्वीकृत्य वयम् इदानीं मृतान्धसः एव स्मः, अतः भवता सुष्ठु सम्यक् एव पृष्टम् अस्ति, उचितं पृष्टम् इति वदति. तद् कचकुमारः न अवगतवान्, अतः किम् इव इति पृच्छति इन्द्रः. कारणं कचकुमारस्य मनसि अस्ति अहं कुशलिनो मृतान्धसः इति कथनेन अमृतान्धसः एव मया विवक्षितः, मया विवक्षितं पदं तु अमृतान्धसः इत्येव कचस्य मनसि अस्ति, किन्तु अकारः तत्र न श्रूयते मृतान्धसः इति श्रवणम् अवलम्ब्य इन्द्रः एवम् उक्तवान् अस्ति. अतः इन्द्रः वदति मृतान्धसः इति, मृतान्धसः इति भवता यद् उक्तं तदेव अहं वदामि सुष्ठु पृष्टं, भवता साधु पृष्टं, सम्यक् एव पृष्टम् अस्ति. अस्माकं वस्तुस्थितिः इदानीं मृतान्धसः एव, वास्तविकीं स्थितिमेव भवान् उक्तवान् अस्ति इति. तदा एव कचः अवगच्छति स्म एवम् अवग्रहचिह्नेन मया क्लेशः उत्पादितः इति. ननु अतः क्षम्यतां महाराज, अवग्रहप्रश्लेषम् अनालोच्य. अत्र अवग्रहस्य उपस्थितिम् अज्ञात्वा अहम् अश्लीलं, नद् यत् न वाच्यं तद् मया उक्तम्, न वक्तव्यम् आसीत् तथा. मम विवक्षा तु अमृतान्धसः एव, न तु मृतान्धसः. अतः अश्लीलं भणितं मया दोषः कृतः, अवाच्यः मया उक्तः. सर्वे सन्तु अमृतान्धसः अमराः च इति स्पष्टं वदति. अहम् अमृतान्धसः, सर्वे अमराः भवन्तु इति कचः वदति. तदा इन्द्रः वदति अस्माकम् अमरत्वम् अद्य भवता सम्पाद्यम्. अस्माकम् अमरत्वम् अहमिदानीम् अस्माकम् अमरत्वं नष्टं जातम्, अद्य पुनः भवता सम्पाद्यं, भवता पुनः तत् प्राप्तव्यम् इति वदति. ननु कथं मया अद्य, कचकुमारस्य आश्चर्यं, मया कथम् अमृतं सम्पादयितुं योग्यमस्ति, मया कथं शक्यं, तदपि अद्य पुनः. अद्य नाम कचकुमारस्य आश्चर्यं, कारणं पूर्वं तु अमृतं सम्पादितं देवैः, इदानीं पुनः तस्य सम्पादनं तु कथं शक्यम् इति आश्चर्यचकितः कचकुमारः वदति पुरैव दत्ता किल कूर्मभूमिकां,
पुरैव दत्ता किल कूर्मभूमिकां,
उपेयुषा मन्थनशैलधारिणा,
उपेयुषा मन्थनशैलधारिणा,
रमाधवेनापि च विश्वमोहिनी,
रमाधवेनापि च विश्वमोहिनी,
प्रभाजुषा वो हि सुधा सुधारिणी,
प्रभाजुषा वो हि सुधा सुधारिणी.
पदच्छेदं करोमि पुरा एव, पुरैव इति पदस्य पुरा एव दत्ता किल कूर्मभूमिकाम् उपेयुषा मन्थनशैलधारिणा रमाधवेन अपि च विश्वमोहिनी प्रभाजुषा. विश्वमोहिनी प्रभाजुषा इति एकं पदं भवेत्. विश्वमोहिनी प्रभाजुषा वहा हि इति सन्धिकारणेन वो हि इति जातं. सुधा असुधारिणी इति पदद्वयं. पुरा एव दत्ता किल इति कचः पृच्छति. पुरा पूर्वमेव दत्ता किल, का दत्ता? सुधा दत्ता किल. पूर्वमेव सुधा नाम अमृतं दत्तं किल इति पृच्छति. केन दत्तम् इत्युक्ते कूर्मभूमिकाम् उपेयुषा, मन्थनशैलधारिणा विश्वमोहिनी प्रभाजुषा रमाधवेन रमाधवेन पुरा एव सुधा दत्ता किल। रमाधवः कः?
विष्णुः।
विष्णुः रमायाः धवः, धवः इत्युक्ते पतिः इति अर्थः। रमायाः पतिः, रमापतिः विष्णुः, महाविष्णुना रमाधवेन इति तृतीया विभक्तिः, महाविष्णुना पुरा एव सुधा दत्ता किल, रमाधवेन पूर्वमेव अमृतं दत्तं किल इति। कीदृशेन रमाधवेन इत्युक्ते पदत्रयं रमाधवेन इति पदस्य विशेषणं भवति। कूर्मभूमिकाम् उपेयुषा, उपेयुषा इति अपि तृतीया विभक्त्यन्तं पदत्रयम् अत्र वर्तते, तत् पदत्रयमपि रमाधवेन इति पदस्य विशेषणं भवति। कूर्मभूमिकाम् उपेयुषा, उपेयुष् शब्दः, उपेयुषा इति तृतीया विभक्तिः, उपेयिवान् इति आगच्छति प्रथमा विभक्तिः, उपेयुषा कम कूर्मभूमिका, भूमिका इत्युक्ते वेषः इति अर्थः, कूर्मवेषं धृतवता विष्णुना इति अर्थः, कूर्मवेषधारिणा महाविष्णुना। उपेयुषा इत्युक्ते प्राप्तेन, उपेयिवान् इत्युक्ते प्राप्तवान् इति प्राप्तेन। मन्थनशैलधारिणा, मन्थनशैलधारिणा इत्युक्ते
मन्थनपर्वतं
धृतवान् अस्ति। कदा धृतवान्? समुद्रस्य मथनसमये महाविष्णुः कूर्म अवतारं स्वीकृत्य मन्थनशैलः नाम पर्वतः, मन्थनपर्वतं स्वस्य पृष्ठे धृतवान् आसीत्। अतः मन्थनशैलधारिणा महाविष्णुना रमाधवेन। पुनः कीदृशेन? विश्वमोहिनी प्रभाजुषा, मोहिनी वेषं धृत्वा एव आगतवान् किल, अतः विश्वमोहिनी प्रभाजुषा, प्रभाजुषा न इत्युक्ते यः विश्वमोहिनी वेषं, प्रभा इत्युक्ते सुन्दरः इत्यपि अर्थः अस्ति, कान्तिः इत्यपि अर्थः, एवं विश्वमोहिनी,
विश्वमोहिन्याः प्रभा, प्रभया,
आम्
विश्वमोहिन्याः कान्त्या
प्रभाजुषा सुन्दरयुक्तेन इति, विश्वमोहिन्याः सौन्दर्यं सौन्दर्ययुक्तेन महाविष्णुना रमाधवेन पुरा एव सुधा दत्ता किल। कीदृशी सुधा दत्ता? सुधा इति पदस्य एकं विशेषणमस्ति असुधारिणी सुधा इति। असुः इत्युक्ते प्राणः इति अर्थः, प्राणान् धरति इति, प्राणधारिणी सुधा नाम यस्य अशनेन प्राणाः ध्रियन्ते सा असुधारिणी भवति, यस्याः सुधायाः अशनेन प्राणाः ध्रियन्ते सा सुधा असुधारिणी भवति। असुधारिणी नाम प्राणधारिणी भवति। तादृशी सुधा पुरा एव रमाधवेन दत्ता किल इति कचकुमारः पृच्छति। अस्य श्लोकस्य अन्वयः एवं भवति, कूर्मभूमिकाम् उपेयुषा मन्थनशैलधारिणा विश्वमोहिनी प्रभाजुषा रमाधवेन वः, वः नाम युष्मभ्यम् अथवा युष्माकं
देवानां,
आम् देवानां पुरा एव असुधारिणी सुधा दत्ता किल इति अस्य श्लोकस्य अन्वयः। एवं पूर्वमेव कूर्म अवतार, कूर्म वेषं धृतवता
विष्णुना,
विष्णुना मन्थनपर्वत धारिणा महाविष्णुना, विश्वमोहिनी प्रभां प्राप्तेन विष्णुना, पूर्वं प्राणधारिणी सुधा युष्माकं, युष्मभ्यं युष्माकं कृते दत्ता किल इति पृच्छति। तदा इन्द्रः स्वगतं, स्वगतं वदति, सत्यं पुराणी कथा अनुसन्धीयते कुमारेण, वेद अध्ययनैकशीलोऽयं न जानातीव प्रकृताम् अवस्थाम्। आत्मगतं वदति इन्द्रः, पुराणी कथा अनुसन्धीयते कुमारेण, अनेन कचकुमारेण बहुकालपूर्वं प्रवृत्ता कथा इदानीं स्मर्यते। बहुकालपूर्वं यदा समुद्रस्य मथनं जातं ततः अमृतम् आगतम्, एषा कथा तु बहुकालपूर्वं संवृत्ता कथा, तां कथाम् इदानीं स्मरति सः कचकुमारः. सः बालः वेद अध्ययनैकशीलः, अयं सर्वदा वेदाध्ययनम् एव करोति, तस्य कार्यान्तरमेव नास्ति. अतः वेद अध्ययन एकशीलः अस्ति सः बालः. न जानाति प्रकृताम् अवस्थाम्, इदानीन्तनीं स्थितिं सः न जानाति इव इति वदति. इदानीं किं जातं, देवानां सङ्कटम् आपतितम्, इदानीम् असुराः देवलोकस्य आक्रमणं कुर्वन्ति इत्यादि विषयम् एषः बालः न जानाति इव अस्ति इति आत्मगतम् उक्त्वा पुनः प्रकाशं यथा सर्वैः श्रूयते तथा वदति. तन्न इति न नाम पुरा एव दत्ता किल इति कचकुमारं पृष्टवान् किल, तस्य उत्तरम् इदानीं वदति इन्द्रः. तन्न इति न इत्युक्ते तद् न दत्तम् इति अहं न वदामि, दत्तमेव पूर्वम् अमृतं तु दत्तमेव. तेन दत्तम् अद्य त्वया पुनः प्रतिष्ठाप्यं, तेन विष्णुना महाविष्णुना दत्तम् अमृतं पुनः अद्य त्वया भवता कचकुमारेण प्रतिष्ठाप्यं, स्थिरीकरणीयम्. तस्य इदानीं स्थैर्यं नास्ति अमृतस्य, भवता इदानीं पुनः तस्य अमृतस्य स्थैर्यं प्राप्तव्यं, प्रतिष्ठायम् इति वदति. तदा कचः, अहो मर्यादामत्येति विश्वासः आचार्यकुटुम्बे देवराजस्य. देवराजस्य आचार्यकुटुम्बे, आचार्याणां नाम बृहस्पतेः कुटुम्बजनेषु, कचः तु बृहस्पतेः पुत्रः अस्ति किल, अतः बृहस्पतेः कुटुम्बजनेषु देवराजस्य विश्वासः मर्यादाम् अत्येति नाम सीमाम् अतिरिच्य अस्ति, एल्लै मीरिण मर्यादे इति वदामः किल, तथा मर्यादे एल्लै ताण्डिगिरद नाम मर्यादाम् अत्येति विश्वासः, देवराजस्य महान् विश्वासः अस्ति अस्मासु इति सामान्यर्थः अस्य वाक्यस्य. देवराजः नाम इन्द्रस्य अस्माकं कुटुम्बे महान्
आदरः
अस्ति, विश्वासः अस्ति, अतः विश्वासेन पृच्छति पुनः अमृतं पुनः सम्पाद्य ददातु इति अस्मान् पृच्छति इति कारणेन अस्माकम् उपरि एतस्य महान् विश्वासः अस्ति. विश्वासः मर्यादाम् अत्येति नाम
अतिक्रमति.
आम्, इन्द्रः पात्रे खलु विश्वासः, अहम् उचितस्थाने एव विश्वासं करोमि, उचितपात्रे एव अहं विश्वासं करोमि इति. कचः, किं वा मम पात्रम्, इदानीं कचकुमारः किम् अस्ति मम पात्रं, मया किं कर्तुं शक्यते इति पृच्छति. इन्द्रः, सुष्ठु पृष्टम्, अद्य समापतिताम् आपदम् अपनेतुं मुख्यपात्रेण भवता भवितव्यम्. अद्य अस्माकम् आपदः जाताः, देवानां महती आपद् अस्ति इदानीम् आपतिताम् एताम् आपदम् अपनेतुं नाम दूरीकर्तुं भवता मुख्यपात्रेण भवितव्यं, भवान् एकं मुख्यभागं स्वीकृत्य अस्माकम् आपदं दूरीकरोतु इति वदति. कचः, का आपत्, कथं वा अपनयनं, किं पात्रम्. एषः कचः किमपि न जानाति, देवा असुराः आगच्छन्ति, आक्रमणं कुर्वन्ति, देवान् पीडयन्ति इति किमपि न जानाति, अतः पृच्छति का आपत्, कीदृशी आपत् अस्ति इदानीं देवानां, का अपनयं, किं कथं वा अपनयनम्, एतासाम् आपदाम् अपनयनं कथं साध्यं भवति, किं पात्रं, मया किं करणीयम् इति. शृणु कचकुमार, इन्द्रः वदति, अवहितोऽस्मि देवराज, अहम् अवहितः अस्मि, भवान् वदतु नाम अहम् इदानीं
श्रोतुं
सिद्धः अस्मि, श्रोतुं सिद्धः अस्मि, अटेण्टिव् इति अर्थः. इन्द्रः, ममेदम् आधिपत्यं त्रिदिवौकसां जीवितं च त्वय्यायत्तम् इदानीं. मम इदम् आधिपत्यम्, अधिपतेः भावः आधिपत्यं नाम किङ्ग्डम्, किङ्ग्शिप् इति वक्तुं शक्यते, मम आधिपत्यम्. अनन्तरं त्रिदिवौकसां जीवितं, त्रिदिवौकसः इति देवाः इति अर्थः, देवः इति पदस्य अर्थं बोधयति त्रिदिवौकसः इति पदमपि. त्रिदिवौकसाम् इति षष्ठी बहुवचनान्तं पदं, त्रिदिवौकसां नाम देवानां जीवितं नाम जीवनम् अपि त्वयि आयत्तं, त्वाम् आश्रित्य अस्ति मम आधिपत्यं देवानां जीवितम् एतद्वयमपि इदानीं भवन्तम् आश्रित्य एव अस्ति त्वयि आयत्तं नाम आश्रितम् इदानीम् इति कथ्यताम् अग्रे वदतु इति कचः सहजवैरिणः खलु अस्माकं पूर्वदेवाः पूर्वदेवाः इति पदस्य असुराः इति अमरकोशे अस्ति पूर्वदेवाः अस्माकं सहजवैरिणः खलु इन्द्रः वदति सहजवैरिणः नाम नैसर्गिकविरोधभावना अस्ति अस्माकम् असुराणां मध्ये नेचुरल् एनिमिटि सहजवैरित्वं तु अस्ति अतः सहजवैरिणः सन्ति पूर्वदेवाः असुराः कचः बाढं वैमात्रेयाः खलु बाढम् इत्युक्ते अवगच्छामि कारणं किं वैमात्रेयाः खलु ते असुराः वैमात्रेयाः सन्ति वैमात्रेयाः इति तेषां कथं भवति
कश्यपस्य पत्नी द्वयम् अदितिः दितिः इति अदितेयाः
अदितेः
पुत्राः देवाः दितेः पुत्राः असुराः अतः इन्द्रस्य मातुः सपत्न्याः पुत्राः इत्यस्मात् कारणात् ते वैमात्राः भवन्ति
वैमात्रेयाः सन्ति असुराः तेषां वैमात्रेयाः सन्ति इन्द्रः अमृतमथनात् प्रागेव ते अस्मासु आग्रहग्रस्ताः अमृतस्य कृते मथनकार्यं कृतम् आसीत् ततः पूर्वमेव ते नाम असुराः सर्वे अस्मासु आग्रहग्रस्ताः आसन् आग्रहग्रस्ताः इत्युक्ते सर्वदा वैरीभावं प्रदर्शयन्तः एव आसन्ति विरोधभावनां प्रदर्शितवन्तः एव कचः अस्तु नाम तया कथया अद्य किं तया कथया नाम ते तु विरोधभावं प्रदर्शितवन्तः पूर्वमेव इति कथया अद्य किं प्रयोजनं कः सम्बन्धः इति पृच्छति तदा इन्द्रः ननु भणामि वदामि भणामि इत्यस्य वदामि मध्ये काञ्चित् सन्धिम् अवलम्ब्य अमृतसम्पादनार्थं प्रयतितम् अस्माभिश्च तैः मध्ये काञ्चित् सन्धिम् अवलम्ब्य किमपि सन्धिः अग्रीमेण्ट् इति अर्थः एकम् अग्रीमेण्ट् अवलम्ब्य नाम कृत्वा एकम् अग्रीमेण्ट् कृत्वा अमृतसम्पादनार्थम् अमृतं प्राप्तुम् अस्माभिः तैः च प्रयतितम् अमृतं सम्पादयितुं वयमपि प्रयत्नं कृतवन्तः ते अपि प्रयत्नं कृतवन्तः तैः अस्माभिः च प्रयतितं कचः ज्ञातमेव एतत् सर्वम् अहं जानामि एव जानामि स्म इन्द्रः न ज्ञातम् इति न भवान् न जानाति इति अहं न वदामि भवान् जानाति इति अहमपि जानामि किन्तु प्रकृतकथा कथा अनुसन्धानार्थं सर्वमपि अभिधीयते इदानीम् अहं किमर्थम् एतत् सर्वं वदामि इत्युक्ते प्रकृतकथा अनुसन्धानार्थम् इदानीं विद्यमानां स्थितिम् अवगन्तुम् इदानीं किं प्रचलति अस्माकं देवलोके इति तां कथाम् अवगन्तुम् एतत् सर्वम् अहं पुनः स्मरामि कचः ततस्ततः तदनन्तरं किम् इति अर्थः इन्द्रः क्षीरोदन्वत्कलशे मन्था मन्दरधराधरः सञ्जातः राजा रज्जुः फणिनां वयम् उभये मथनकर्मणि परिक्लिप्ताः क्षीरोदन्वत्कलशे क्षीरोदन्वत् नाम क्षीरसागरः उदन्वत् उदन्वान् इत्युक्ते सागरः इति अर्थः समुद्रः इति क्षीरसमुद्रकलशे क्षीरसमुद्रः समुद्रः एव कलशः आसीत् तस्मिन् कलशे मन्था कः आसीत् मन्दरधराधरः मन्था सञ्जातः धराधरः इत्युक्ते पर्वतः इति अर्थः धरां धरति भूमिं धरति इति धराधरः पर्वतः मन्दरपर्वतः मन्था सञ्जातः मन्था इति उपकरणम् अस्ति येन मथनकार्यं क्रियते तमिळ्भाषायां किं वदामः मत् इति वदामः स एव मन्था सञ्जातः अत्र मन्दरपर्वतः एव मन्था आसीत् अनन्तरं फणिनां राजा रज्जुः जाता फणिनां फणि इत्युक्ते सर्पः सर्पाणां राजा कः वासुकिः एव रज्जुः आसीत् कथनकार्ये. वयम् उभये, वयं देवाः असुराः च, उभये नाम उभयपार्श्वे, बोत् सैड्स् इति अर्थः. मथनकर्मणि एतस्मिन् कार्ये, मथनकार्ये परिक्लिप्ताः आस्म. परिक्लिप्ताः नाम निरताः आस्म इति. कचः, अहो वक्तृवैलक्षण्येन श्रुतचरापि कथा कुतूहलं मे जनयति. उच्यताम्, कचः वदति वक्तृवैलक्षण्येन श्रुतचरापि कथा. श्रुतचरा नाम श्रुतपूर्वा कथा. पूर्वं यद्यपि एतां कथां बहुवारम् अहं श्रुतवान् अस्मि, तथापि वक्तृवैलक्षण्येन, इदानीं वक्ता भिन्नः अस्ति. यद्यपि वयं रामायणं कथां, रामायणकथां जानीमः, तथापि भिन्नभिन्न उपन्यासकः यदा रामायणं वदति तदा इतोपि रुचिः सम्यक् भवति तस्य. तथा श्रुतचरा अपि कथा, पूर्वं श्रुता अपि एषा कथा, इदानीं वक्तृवैलक्षणे इन्द्रस्य मुखात् पुनः शृणोति इति कारणेन कुतूहलं मे जनयति, इतोपि मम सन्तोषं जनयति. उच्यताम्, अग्रे वदतु इति. इन्द्रः, पार्श्वे च वादः प्रमितौ विवादः,
पार्श्वे च वादप्रमितौ विवादः,
ग्राहे च वादः ग्रथने विवादः,
ग्राहे च वादः ग्रथने च विवादः,
पादे च सुरासुराणां,
पादे च पादे च सुरासुराणां,
परस्परं वाक् कलहो बभूव,
परस्परं वाक् कलहो बभूव.
पार्श्वे च वादः प्रमितौ विवादः, ग्राहे च वादः ग्रथने विवादः, पादे च सुरासुराणां, परस्परं वाक्कलहः बभूव. अतिसरलः श्लोकः अस्ति, अस्य पदच्छेदस्य वा अन्वयस्य वा आवश्यकता एव न स्यात् श्लोकस्य. इन्द्रः वदति यदा क्षीरसागरस्य मथनकार्यं जातं तदा एकैकस्मिन्नपि पादे, नाम इन् एव्रि ईच् एण्ड् एव्रि स्टेप् सुर असुराणां मध्ये कलहः आसीत् इति वदति. कुत्र कुत्र कलहः आसीत् इत्युक्ते पार्श्वे च वादः, कस्मिन् पार्श्वे अहं वासुकिम् अहं तिष्ठामि, भवान् कस्मिन् भवन्तः कस्मिन् पार्श्वे तिष्ठन्ति इति विषये, सुराः कस्मिन् पार्श्वे तिष्ठन्ति, असुराः कुत्र तिष्ठन्ति इति पार्श्वे वादः आसीत्, नाम अत्र कलहः द्वयोः मध्ये, सुरा असुराणां मध्ये कलहः आसीत्. प्रमितो विवादः, प्रमितौ, प्रमितिः इत्युक्ते मेशर् इति अर्थः. कियत् परिमितं वयं गृह्णीमः, भवन्तः कियत् परिमितं गृह्णन्ति इति विषये अपि अस्माकं मध्ये वादः आसीत्. ग्राहे च वादः, वासुकीसर्पस्य मुखभागे वयं गृह्णीमः, भवन्तः पुच्छभागं गृह्णन्तु, नो चेत् वयं पुच्छभागं गृह्णीमः, भवन्तः मुखभागं गृह्णन्तु इति विषये अपि वादः आसीत्. ग्रथने विवादः, ग्रथने इत्युक्ते बन्धनम् इति अर्थः, बन्धनविषये अपि विवादः आसीत्. ग्रथने विवादः. एवं पादे च सुरासुराणां, सुर असुराणां मध्ये पादे च प्रतिपादं, प्रतिपदं तेषां मध्ये परस्परं वाक्कलहः बभूव आसीत्. कचः, स्थाने हि तत् प्रकृतिनिकृतिस्थानां, ततस्ततः स्थाने, स्थाने इति पदम् अत्र अव्ययम् इति अव्ययम् अस्ति, उचितम् इति अर्थं बोधयति. स्थाने इति अव्ययपदम्, उचितम् एव तत् प्रकृतिनिकृतिस्थानां, निकृति इत्युक्ते कपटः इति अर्थः. सर्वदा प्रकृत्या एव कपटे तिष्ठन्ति एते असुराः, अतः प्रकृतिनिकृतिस्थाः सन्ति असुराः. तादृशानाम् असुराणां, प्रकृतिनिकृतिस्थानाम् असुराणाम् उचितमेव एतत्, नाम प्रतिपादं ते वाक् कलहं कृतवन्तः इति तेषां स्वाभाविकम् अस्ति, उचितमेव एतत्. ततस्ततः अग्रे किम्, इन्द्रः, मध्यस्था कथा तथा आस्ताम्, अन्ततः कथमपि सुधा लब्धा, तद्विभजनसमये मध्यस्था कथा तथा आस्ताम्। एवं समुद्रमथनं जातं, तस्मात् के के आगताः, एतत् सर्वम् अस्ति, तत्सर्वं तथा एव भवतु। अन्ततः अन्ते कथमपि सुधा लब्धा, कथञ्चित् अमृतं प्राप्तं। तद् विभजनसमये यदा अमृतस्य विभागं कृतवन्तः तदा इति इन्द्रः वदति, तदा कचकुमारः विदितः एव कथा अवशेषः, अवशिष्टां कथां विदितः नाम अहं जानामि एव। मायया असुरस्य एकस्य देवगोष्ठी प्रवेशः, चक्रधरेण तच्छिरश्छेदनं, मायाविनाम् असुराणां सुधा अनुपलब्धिः इति। एवं कचकुमारः स्वयमेव अवशिष्टां कथां वदति। किमिति? असुरसैन्यस्य कस्यचित् असुरस्य देवगोष्ठी प्रवेशः, इदानीम् अमृतप्राप्त्यर्थं देवाः असुराः पृथक् तिष्ठन्ति, तत्र देवानां पक्षे कश्चित् असुरः मायावि वेषधारी असुरः प्रविशति स्म, तदेव देवगोष्ठी प्रवेशः, कस्यचित् असुरस्य देवगोष्ठी प्रवेशः। चक्रधरेण, चक्रधरः कः? चक्रं यः धरति सः महाविष्णुः, महाविष्णुना तत् शिरश्छेदनं, तस्य यः देवगणं प्रविष्टवान् अस्ति मा असुरः कश्चित्, तस्य शिरश्छेदनं कृतवान् महाविष्णुः। अनन्तरं मायाविनाम् असुराणां सुधा अनुपलब्धिः, एवं माया असुराणां मायाविनां ये माया कपटयुक्तानाम् असुराणां सुधायाः अनुपलब्धिः, ते सुधां न लब्धवन्तः, एतां कथाम् अहं जानामि एव इति कचः वदति। इन्द्रः कचकुमार तत्र तिष्ठ, तेनैव हेतुना प्रवृद्धमत्सराः असुराः तदा तदा अभिशेनयन्ति स्वर्गपुरीं, बहवो अस्माभिः निहन्यन्ते च। तेनैव हेतुना, तस्मात् कारणात् नाम सुधा न लब्धा इति कारणात् प्रवृद्धमत्सराः ईर्ष्याग्रस्ताः असूयया पीडिताः असुराः तदा तदा आगत्य स्वर्गपुरीम् अभिशेनयन्ति, देवलोकं पीडयन्ति, देवलोकस्य आक्रमणं कुर्वन्ति, अस्माभिः बहवः निहन्यन्ते च, नाम वयमपि बहून् असुरान् मारितवन्तः। निहन्यन्ते अत्र कर्मणि प्रयोगे अस्ति, अस्माभिः बहवः निहन्यन्ते नाम बहवः असुराः अस्माभिः मारिताः च। कचः साधु साधु सम्यक्। इन्द्रः न साधु सम्यक् न, कारणम् अस्मदनीके अपि अनेके निहन्यन्ते तैः असुरैः, अस्माकं पक्षे अपि बहवः अनेके निहन्यन्ते, अनेके देवाः अपि निहन्यन्ते नाम मारिताः सन्ति, असुरैः अपि अस्माकं पक्षे बहवः मारिताः सन्ति इति। कचः तत्कथं सुधाभुजो निहन्यन्ते इति, एतत् कथं साध्यं? कचकुमारस्य आश्चर्यं, कारणं सुधाभुजाः सन्ति देवाः, सुधाभुजाः नाम सुधां ये सुधां भुञ्जते इति सुधाभुजाः नाम सुधाम् अश्नन्ति, सुधां ये अमृतं खादन्ति ते सुधाभुजाः देवाः इति अर्थः। देवाः एवम् अमृतम् अश्नन्ति अतः तेषां मरणं न सम्भवेत् किल, अतः सुधाभुजाः निहन्यन्ते मारिताः इति कथं साध्यम् इति कचः पृच्छति। इन्द्रः सत्यमेतत्, चिरकालादूर्ध्वं सेवितस्य औषधस्यैव अमृतस्य बलं श्लथितम् इति मन्ये। चिरकालादूर्ध्वं सेवितस्य औषधस्य, इदानीम् एकम् औषधं क्रीत्वा बहुकाल अनन्तरं खादति चेत् नाम तस्य एक्स्पैरी डेट् भवति किल औषधस्य, अतः चिरकाल ऊर्ध्वं चिरकालात् परं तद् औषधं खादति चेत् तस्य प्रयोजनं न भवति, तथा चिरकाल इदानीम् अमृतमपि अस्माकं समीपे अस्ति किन्तु इदानीं बहुकालः जातः, अमृतम् अस्माभिः बहुकालपूर्वं सम्पादितम् अस्ति, अतः चिरकाल अनन्तरम् इदानीं तस्य अमृतस्य अपि प्रयोजनम् अस्माकं किमपि न भवति तस्य इति वदति। तत्र अस्य नाटकस्य रचयिता अमृतस्य अपि एक्स्पैरी डेट् दत्तवान् अस्ति, कथं साध्यम् अहं न जानामि। कचः यदि तर्हि पुनः क्षीरार्णवः मतयिष्यते असुरैः सह सन्धिः। इदानीं कचकुमारः मुग्धः बालः वदति इदानीं पुनः तस्य अमृतस्य सम्पादनार्थं किं करणीयं, क्षीरार्णवः नाम क्षीरसागरः पुनः क्षीरसागरे पुनः मथनकार्यं करणीयम् अस्ति, पुनः असुरैः सह सन्धिः, पुनः तैः सह एक अग्रिमेण्ट् करणीयम् इति वदति इन्द्रः। नहि सिद्धार्थास्ते खलु, ते सिद्धार्थाः नाम ते साधितवन्तः, ते सफलतां प्राप्तवन्तः अस्मिन् विषये इति कथम् इव कचः पृच्छति। इन्द्रः एकदर्शनेन तेषाम् आचार्येण मन्त्रबलेन काचित् शक्तिः सम्पादिता। तेषाम् आचार्येण एकदर्शनेन, एकदर्शनः इति शुक्राचार्यः, कारणं तस्य एकम् अक्षि एव अस्ति इति कारणेन एकदर्शनः इत्यपि तस्य नामान्तरम् अस्ति। तेषाम् आचार्यः नाम असुराणाम् आचार्येण एकदर्शनेन शुक्राचार्येण मन्त्रबलेन, केनापि मन्त्रबलेन काचित् शक्तिः सम्पादिता। सः शुक्राचार्यः एकां शक्तिं सम्पादितवान्। युद्धे निहतान् असुरान् सः तद्बलेन पुनः उपजीव्य प्रेषयति। तेन मन्त्रबलेन, मन्त्रशक्त्या सः शुक्राचार्यः मारितान् सर्वान् असुरान् पुनः जीवयति, प्रेषयति अपि। ते समरे तु अमराणाम् असून् रान्ति। ते समरे, समरः इत्युक्ते युद्धम् इति अर्थः, ते असुराः युद्धे अमराणाम् असून् रान्ति। असुः इति प्राणः, अमराणां देवानां प्राणान् रान्ति इत्यत्र स्वीकुर्वन्ति इत्यर्थः। रा धातुः टु गेट् आर् टु गिव्, अत्र टु गेट् इति अर्थः स्वीक्रियते, कारणं ते पुनः आगत्य देवानां प्राणान् स्वीकुर्वन्ति। कष्टं भोः, ते तदद्य किं क्रियताम्, इदानीं किं कर्तव्यम् इति कचकुमारः पृच्छति। इन्द्रः गुरुकुमार साधु पृष्टं त्वया, सम्यक् भवता पृष्टमस्ति, सङ्गीतविशेष अभ्यासमिषेन शुक्रः त्वया शुश्रूषितव्यः। शुक्रः, शुक्राचार्यः त्वया भवता कचकुमारेण शुश्रूषितव्यः नाम श्रूषा करणीयः, शुक्राचार्यः भवता सेवनीयः। केन व्याजेन सेवनीयः इत्युक्ते सङ्गीतविशेष अभ्यासमिषेन, मिषम् इत्युक्ते कपटम् इति अर्थः, व्याजेन सङ्गीतं, सङ्गीत अभ्यासम् इति कपटकारणम् उक्त्वा भवता शुक्राचार्यः सेवनीयः। कचः देवराज अपि लभ्यन्ते सङ्गीतेन तिन्त्रिणीफलानि, कचः पृच्छति सङ्गीतेन तिन्त्रिणीफलानि लभ्यन्ते किं नाम, अहं सङ्गीत अभ्यासव्याजेन यदा गच्छामि तदा एतत् मृतसञ्जीवनमन्त्रप्राप्तिः भवति वा, यत् अमृतस्य सम्पादनं कथं भवति इति पृच्छति। सङ्गीत अभ्यासमिषेन इत्युक्ते सङ्गीतेन तिन्त्रिणीफलानि लभ्यन्ते वा इत्युक्ते तिन्त्रिणीफलम् इत्युक्ते पुलियं फलम् इति, टामरिण्ड् इति अर्थः तिन्त्रिणी इत्यस्य। सङ्गीतेन तिन्त्रिणीफलानि लभ्यन्ते वा, सङ्गीतेन अमृतसम्पादनं कथं सम्भवति इति प्रष्टुम् इति कथनस्य अपेक्षया किञ्चित् रुचिं वर्धयितुम् एवं पृच्छति कचकुमारः, सङ्गीतेन तिन्त्रिणीफलानि लभ्यन्ते वा इति। सङ्गीतेन कारणं तत्र शुक्राचार्यस्य समीपं तु सङ्गीत अभ्यासार्थं गमनं नास्ति निश्चयेन, तदि एकः व्याजः एव, कार्यं तु भिन्नमस्ति, अमृतसम्पादनम् इति कार्यं तु भिन्नमस्ति, तत् कार्यं सम्पादयितुं शक्यते वा इति प्रश्नः करणीयः। त तत्र एषः एवं पृच्छति, सङ्गीतेन तिन्त्रिणीफलानि लभ्यन्ते वा इति. इन्द्रः बाढं न लभ्यन्त इति लोकोक्तिः, अमृतफलम् एव लभ्यत इति शास्त्रोक्तिः. सङ्गीतेन तिन्त्रिणीफलानि निश्चयेन न लभ्यन्ते इति लोकोक्तिः अस्ति. इति लोकोक्तिः नाम व्यवहारे निश्चयेन तद् न शक्यते, किन्तु अमृतफलं लभ्यत इति लभ्यते इति शास्त्रोक्तिः अस्ति. किन्तु शास्त्रस्य उक्तिः एवम् अस्ति, सङ्गीतेन अमृतप्राप्तिः अस्ति इति. अमृतप्राप्तिः इति इन्द्रेण विवक्षितः अर्थः सुधा प्राप्तिः इति. किन्तु अमृतम् इति पदस्य मोक्षम् इति अपि अर्थः अस्ति, अतः सङ्गीतेन मोक्षप्राप्तिः अपि भवति इति अर्थद्वयम् अपि सूचयति. कचः तत्त्यागेन खलु अमृतप्राप्तिः, नाम कचः मोक्षप्राप्तिः इति अर्थं स्वीकृत्य एवं पृच्छति. मोक्षप्राप्तिः तु सङ्गीतेन कथं प्राप्यते? त्यागेन, नाम त्यागं कृत्वा संन्यासं स्वीकृत्य एव मोक्षप्राप्तिः भवितुमर्हति किल इति कचकुमारः पृच्छति. तदा इन्द्रः, सा उपनिषत्सूक्तिः. उपनिषत्सूक्तिः एवम् अस्ति, उपनिषत् किं वदति?
त्यागेनैके अमृतत्वम् आनुषुः.
अस्य अर्थः तु त्यागेन एव
मोक्षप्राप्तिः
इति. एषा उपनिषत्सूक्तिः अस्ति, किन्तु सङ्गीत उपनिषत्सूक्तिः इति अन्या अस्ति. अन्या काचित् सूक्तिः वर्तते, सा सूक्तिः सङ्गीत उपनिषत्सूक्तिः इति. सङ्गीतं याग योग त्याग भोग फलं ददाति इति सङ्गीत उपनिषद् मर्मज्ञानां सूक्तिः अनुभूतिश्च. एवं सङ्गीतं याग योग त्याग भोग फलं ददाति इति सङ्गीत उपनिषद् इति त्यागराजभागवतस्य कृतयः सङ्गीत उपनिषदः इति
व्यवहारे वर्तन्ते,
व्यवहारे उच्यन्ते. तत्र त्यागराजमहाभागस्य कस्मिंश्चित् गीते रागसुधारस इति किञ्चित् गीतं वर्तते, तस्मिन् गीते एषा पङ्क्तिः भवति, यागयोगत्यागभोगफलं ददाति इति. अतः सङ्गीत उपनिषद् मर्मज्ञानां, ये मर्म जानाति, सङ्गीत उपनिषदां रहस्यं ये जानन्ति, तेषां सूक्तिः एवम् अस्ति, सङ्गीतेन अमृतप्राप्तिः नाम मोक्षप्राप्तिः अवश्यम् अस्ति, तेषाम् अनुभूतिः अपि नाम तेषाम् अनुभवः अपि अस्ति एतद्विषये इति. कचः देवराज, अल्पप्रश्नेन मम प्रकृतार्थो दूरम् आकृष्टः. सङ्गीतेन तिन्त्रिणीफलानि लभ्यन्ते वा इति अहं प्रश्नं पृष्टवान्. तेन प्रश्नेन, अल्पप्रश्नेन
अस्माकं सम्भाषणं तु दूरम् आनीतम्.
आम्, विषयात् बहु दूरं वयम् आकृष्टाः स्मः इदानीम्. वस्तुतः अमृतसम्पादनं कथं नाम सुधायाः पुनः उपलब्धिः कथम् इति विषये अस्माकं भाषणम् आसीत्. इदानीं तस्मात् वयं बहु दूरम् आकृष्टाः स्मः इति. इन्द्रः, न दूरम् आकृष्टः, शुक्रसान्निध्ये प्रष्टव्यानाम् अभ्यासः इति मन्ये. यदा भवान् शुक्रस्य समीपं गच्छति तदा किञ्चित् वा सङ्गीते ज्ञानं प्राप्य गच्छतु इति तत्र भवतः अभ्यासः भवति. तत्र यद्यत् प्रष्टव्यम् अस्ति तस्य किञ्चित् ज्ञानं भवान् एतेन व्याजेन प्राप्नोतु इति अहं चिन्तयामि. शुश्रूषस्व कविं लभस्व च मनुं
येनामरैर्भूयते
सप्राणैर्गुरुपुत्र गच्छतु भवान्
आगच्छतु स्वस्तिते
शुश्रूषस्व कविं लभस्व च मनुं येन अमरैः भूयते सप्राणैः गुरुपुत्र गच्छतु भवान् आगच्छतु स्वस्ति ते इति पदविभागः. कविं शुश्रूषस्व, कविः शुक्राचार्यस्य नामान्तरं कविः इति. कविः इत्युक्ते शुक्राचार्यः इति अर्थः. एवं शुक्राचार्यं सेवस्व, शुश्रूषस्व नाम सेवस्व, शुक्राचार्यस्य सेवां करोतु, मनुं लभस्व, मनुः इत्युक्ते मन्त्रः इति अर्थः, मन्त्रं प्राप्नोतु, मन्त्रं लभस्व, त्वं मनुं लभस्व, येन येन मन्त्रेण अमरैः सप्राणैः भूयते, येन मन्त्रेण देवाः सप्राणाः भवेयुः, येन मन्त्रेण देवाः सर्वे सप्राणाः नाम अमराः अमराः भवेयुः, हे गुरुपुत्र इति सम्बोधनं, हे गुरुपुत्र भवान् गच्छतु आगच्छतु, मन्त्रं लब्ध्वा आगच्छतु, ते स्वस्ति, तव मङ्गलं भवतु इति। एवम् अस्य श्लोकस्य अन्वयः एवं भवति, गुरुपुत्र कविं शुश्रूषस्व, मनुं च लभस्व, येन अमरैः सप्राणैः भूयते, भवान् गच्छतु स्वस्तिते आगच्छतु। अचः भूमिध्राः विचलन्तु, वारि निधयः शुष्यन्तु, देहार्पणं कृत्वापि त्रिदशेन्द्राः हे त्रिदशेन्द्र सिष्टिम् अधुना ते पालयामि ध्रुवम्। हे त्रिदशेन्द्र, शुश्रूषस्व कविं लभस्व इति श्लोकस्य आरम्भः। श्लोकस्य पूर्वार्धम् इन्द्रः उक्तवान् गच्छतु भवान् आगच्छतु स्वस्तिते भवतु इत्यादिकम्। इदानीं कचः उत्तरं ददाति श्लोकरूपेण, श्लोकस्य अपरार्धः एवम् अस्ति, भूमिध्रा विचलन्तु वारि निधयः,
भूमिध्रा विचलन्तु वारि निधयः,
शुष्यन्तु देहार्पणम्,
शुष्यन्तु देहार्पणम्,
कृत्वापि त्रिदशेन्द्र,
कृत्वापि त्रिदशेन्द्र,
कृत्वापि त्रिदशेन्द्र,
कृत्वापि त्रिदशेन्द्र,
सिष्टिम् अधुना ते,
सिष्टिम् अधुना ते,
पालयामि ध्रुवम्,
पालयामि ध्रुवम्।
श्लोकस्य अपरार्धस्य पदच्छेदः एवं भवति, भूमिध्राः विचलन्तु वारि निधयः शुष्यन्तु, देहार्पणं कृत्वा अपि त्रिदशेन्द्र सिष्टिम् अधुना ते पालयामि ध्रुवम्। हे त्रिदशेन्द्र इति सम्बोधनम्, त्रिदशानाम् इन्द्रः नाम देवानां राजा, हे इन्द्र भूमिध्राः विचलन्तु, भूमिध्राः इत्युक्ते पर्वताः, भूमिं धरन्ति इति भूमिध्राः पर्वताः, पर्वताः विचलन्तु, विचलन्तु इत्युक्ते इतस्ततः गच्छन्तु, चिन्ता नास्ति, वारि निधयः शुष्यन्तु, वारि निधयः इत्युक्ते समुद्राः, वारि इत्युक्ते जलं, जनानां निधिः अस्ति समुद्रः, ते समुद्राः शुष्यन्तु, समुद्राणां शोषणं भवतु, शुष्यन्तु समुद्राः ड्रै, शुष्यन्तु इत्युक्ते ड्रै, समुद्राः शुष्यन्तु, देहार्पणं कृत्वा अपि मम शरीरस्य त्यागं कृत्वा, देहः शरीरः, शरीरस्य अर्पणं समर्पणं कृत्वा अपि अहं ते सिष्टिं पालयामि, ध्रुवं पालयामि, तव भवतः सिष्टि नाम आज्ञा, तव आज्ञा इदानीम् अधुना इदानीं पालयामि, निश्चयेन करोमि, ध्रुवम् इत्युक्ते निश्चयेन इति अर्थः, निश्चयेन अहं तव आज्ञां पालयामि, मम देहार्पणं कृत्वा अपि अहं कार्यं सम्पाद्य आगच्छामि, कार्यं साधयित्वा आगच्छामि इति वदति। एषः श्लोकः शुश्रूषस्व इति आरभ्य ते पालयामि ध्रुवं पर्यन्तम् एकः श्लोकः, श्लोकस्य पूर्वार्धः इन्द्रेण उक्तः, श्लोकस्य अपरार्धः द्वितीय अर्धः कचः वदति शार्दूलविक्रीडितम् इति
वृत्तमनुसृत्य,
आम् अनुसृत्य वर्तते अयं श्लोकः। द्वितीय अर्धस्य अन्वयः एवं वर्तते, त्रिदशेन्द्र भूमिध्राः विचलन्तु वारि निधयः शुष्यन्तु, देहार्पणं कृत्वापि अधुना ते सिष्टिं ध्रुवं पालयामि। इन्द्रः अवधानेन अवहित्थया च कार्यं साधय, अवधानेन, अवधानम् इत्युक्ते फोकस्ड् नाम
सावधानतया,
यदर्थं गच्छति तत् कार्यसम्पादने सर्वदा निरतः निरतः भवतु इति, अवधानेन अवहित्थया च, अवहित्था इत्युक्ते आकारं गोपयित्वा इति अर्थः, नाम आकारम् इत्युक्ते मुखभावादिकं, नाम देवासुराणां मध्ये निश्चयेन एकः वैरीभावः भवति एव, तादृशं भावम् अप्रदर्श्य कार्यसम्पादने एव निरतः भूत्वा कार्यं साधय इति. त्वचः अनुमन्यस्व अदितिसूनो, अदितिसूनुः, अदितिः सूनुः इत्युक्ते पुत्रः इति अर्थः, अदितेः पुत्रः इन्द्रः देवः. हे अदितिसूनो इति सम्बोधनं, हे अदितिपुत्र अनुमन्यस्व मम अनुमतिं ददातु इति उक्त्वा इन्द्रः कचः च रङ्गमञ्चात् बहिर्गच्छन्ति इति द्वितीयः अङ्कः अत्र समाप्यते.